कदार्जुनो गतो दूरम् योद्धुं संशप्तकैः सह अभिमन्युं विना नान्यः समर्थो व्यूहभेदने वेदिते चक्रव्यूहेऽपि अत एव हि वीर्यवान् पार्थपुत्रस्य एकाकी कौरवैर्निर्घृणैर्हतः